इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्य वार्ताः। 46,000 मैट्रिक टन परिमितं द्रवीकृत पेट्रोलियम वातेन्धनं परिवहन् भारतीय मालवाहक पोतः नन्दादेवी अद्य प्रातः कतरदेशात् प्रस्थाय गुजरातस्य वाडिनार पोताश्रयं सुरक्षिततया प्राप्तवान्। प्रशासनेन लोकसभायां सूचितं यत् पश्चिम एशियायां जायमानस्य संकटस्य सत्त्वेऽपि भारतस्य आर्थिक स्थितिः सुदृढा वर्तते। लोकसभया अद्य विपक्षस्य 8 सदस्यानां निलम्बनं निराकृतम्। राष्ट्रपतिपदासीना द्रौपदी मुर्मू अद्य प्रतिपादितवती यत् सर्वकारस्य प्रधानमन्त्री पोषण शक्ति निर्माण योजनायाः अन्तर्गतं बालकेभ्यः प्रदीयमानं पौष्टिक भोजनं वस्तुतः देशस्य मानव सम्पत्तौ एकः महत्वपूर्णः निवेशो वर्तते। अपि च काबुल चिकित्सालये पाकिस्तानस्य वायुप्रहारः अफगानिस्तानस्य सम्प्रभुतायाः उपरि साक्षात् प्रहारः वर्तते इति भारतेन प्रतिपादितम्। अथ वार्ताः विस्तरेण। पश्चिम एशियायां वर्धमानस्य अवसादस्य मध्ये 46,000 मैट्रिक टन परिमितं द्रवीकृत पेट्रोलियम वातेन्धनं परिवहन् भारतीय मालवाहक पोतः नन्दादेवी अद्य प्रातः कतरदेशात् प्रस्थाय होर्मुज जल डमरू मध्यं पारं कृत्वा गुजरातस्य देवभूमि द्वारकामण्डले स्थितं वाडिनार पोताश्रयं सुरक्षिततया प्राप्तवान्। दीनदयाल पोर्ट अथॉरिटी इत्यस्य अध्यक्षः सुशील कुमार सिंहः वाडिनार नगरे एकस्य विशालस्य शिप टू शिप इति एलपीजी स्थानान्तरण अभियानस्य आरम्भं घोषितवान्। श्रीसिंहः अवदत् यत् नन्दादेव्यां विद्यमानः एलपीजी लघुपोतेषु स्थानान्तरितः भविष्यति, येन सह तमिलनाडुराज्यस्य एन्नोर तथा पश्चिमबंगालस्य हल्दिया पर्यन्तं प्रेषयितुं शक्यते। उल्लेखनीयं वर्तते यत् ह्यः एव कतरदेशात् एलपीजी नीत्वा आगतः अन्यः भारतीय पोतः शिवालिकः अपि गुजरातस्य मुन्द्रा पोताश्रयं सुरक्षितं प्राप्तवान्। एताभ्यां द्वाभ्यां खेपाभ्यां देशस्य वातेन्धन भण्डारस्य सुदृढीकरणार्थं महती सहायता मिलिष्यति। अपि च 81,000 टन परिमितं अपरिष्कृत तैलं वहन् अन्यः भारतीय पोतः जग लाडकी अपि भारतं प्रति प्रस्थितः अस्ति। पत्तन पोत परिवहन जलमार्ग मन्त्रालयस्य विशेष सचिवः राजेश कुमार सिन्हा अद्य सूचितवान् यत् उत्पत्यकायां सर्वे भारतीय नाविकाः मालवाहक पोताश्च पूर्णतः सुरक्षिताः सन्ति। श्रीसिंहः नवदिल्ल्यां पश्चिम एशियायाः सद्यः जातस्य घटनाक्रमस्य विषये आयोजितां अन्तर्मन्त्रालयीय वृत्तान्तं सम्बोधयन् एतद् विज्ञापितवान्। सः अवदत् यत् विगत चतुर्विंशति होरासु उत्पत्यका क्षेत्रे स्वकार्यं सम्पाद्य 61,000 भारतीय नाविकाः सुरक्षितं भारतं प्रत्यागताः। वृत्तान्तसत्रं सम्बोधयन्ती पेट्रोलियम प्राकृतिक गैस मन्त्रालयस्य संयुक्त सचिवः सुजाता शर्मा अद्य उक्तवती यत् सम्पूर्णे देशे पेट्रोल डीजल ईंधनयोः पर्याप्तं भण्डारं विद्यते। सुजाता शर्मा अधिकं स्पष्टीकृतवती यत् सर्वकारः वाणिज्यिक एलपीजी उपभोक्तृन् पाइप्ड नेचुरल गैस इति अंकीय प्राकृतिक वायुं प्रति स्थानान्तरणाय निरन्तरं प्रयासं करोति।
क्रूड अवेलेबिलिटी सामान्य है, हमारी रिफाइनरीज उच्चतम स्तर पर काम कर रही हैं, रिटेल आउटलेट्स पर कोई शॉर्टेज नहीं है, पेट्रोल और डीजल पर्याप्त मात्रा में उपलब्ध है। नेचुरल गैस के संबंध में भारत सरकार का ये प्रयत्न है कि जो भी कमर्शियल एलपीजी कंज्यूमर्स हैं अगर वो पीएनजी पर शिफ्ट हो तो अच्छा होगा, इसी दिशा में भारत सरकार भी प्रयासरत है।
सर्वकारेण स्पष्टीकृतं यत् एलपीजी बायोमेट्रिक आधार प्रमाणीकरणं केवलं तेभ्यः ग्राहकेभ्यः अनिवार्यं वर्तते येषाम् अद्यापि प्रमाणीकरणं न जातम्। पेट्रोलियम प्राकृतिक गैस मन्त्रालयेन सामाजिक संजालीय माध्यमेन सूचितं यत् एषः कोऽपि नूतन निर्देशः नास्ति, अपितु सर्वकारस्य तस्याभियानस्य भागः अस्ति येन अधिकाधिक ग्राहकाः आधार प्रमाणीकरणाय प्रोत्साहिताः क्रियन्ते। ये ग्राहकाः प्रधानमन्त्री उज्ज्वला योजनायाः अन्तर्गतं न आगच्छन्ति तथा च ये पूर्वमेव एतां प्रक्रियां पूर्णवन्तः तेभ्यः पुनः प्रमाणीकरणस्य आवश्यकता नास्ति। प्रधानमन्त्री उज्ज्वला योजनायाः ग्राहकेभ्यः एषा प्रक्रिया प्रत्येकस्मिन् वित्तीय वर्षे केवलं एकवारं करणीया भविष्यति। सा च तदैव अनिवार्या यदा सप्तवारं रिफिल इति प्राप्त्यनन्तरं अष्टमे नवमे च रिफिल समये लक्षित प्रत्यक्ष लाभ अन्तरण इति योजनायाः अनुदानं प्राप्तव्यं स्यात्। एलपीजी ग्राहकाणां मध्ये प्रचलितानां भ्रान्त सूचनानां निराकरणार्थं सर्वकारेण एतत् स्पष्टीकरणं निस्सारितम्। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। वाणिज्य उद्योग मंत्री पीयूष गोयलः उक्तवान् यत् पश्चिम एशियायां जायमानस्य संकटस्य सत्वेपि भारतस्य आर्थिक स्थितिः सुदृढा वर्तते। अद्य लोकसभायां प्रश्नकालावधौ पूरक प्रश्नानाम् उत्तरं प्रयच्छन् श्री गोयलः अवदत् यत् भारतेन सह व्यापारिक सम्बन्धान् सुदृढीकर्तुं विश्वस्मिन् उत्साहः संवर्धते। सः विश्वासं प्रकटितवान् यत् मार्च मासस्य अन्त्यपर्यन्तं भारतं स्वकीयं निर्यातस्तरं यथा पूर्वं स्थापयितुं साफल्यम् अवाप्स्यति।
पूरे विश्व में एक प्रकार से भारत के साथ व्यापारिक संबंध बढ़ाने का आज उत्साह है। 3-3.5 वर्षों में हमने 38 विकसित देशों में द्वार खुले हैं अब भारत के निर्यातकों के लिए। भारत के लिए अपार संभावनाएं हैं, भारत के मछुआरों के लिए, भारत के किसानों के लिए, भारत के छोटे सूक्ष्म लघु उद्योग के लिए, नए निर्यातकों के लिए, नए प्रोडक्ट्स और नए सर्विसेज के लिए नई मार्केट्स खुलेंगी बड़े रूप में। अंतर्राष्ट्रीय व्यापार में भारत का शुरू नया अध्याय लिखा जा रहा है।
लोकसभया अद्य विपक्षस्य अष्ट सदस्यानां निलम्बनं तदा निराकृतं यदा सदने एतत्सम्बद्ध प्रस्तावः सर्वसम्मत्या पारितः। एषः प्रस्तावः संसदीय कार्यमन्त्रिणा किरेन रिजिजू इत्यमुना प्रस्तुतम्, यस्मिन् सदस्यानां निलम्बनं तत्कालप्रभावेण समापयितुं प्रार्थना कृता आसीत्। एतेषु सदस्येषु कांग्रेसदलस्य मणिकम टैगोरः, अमरिन्दर सिंह राजा वारिंग, गुरजीत सिंह औजला, हिबी ईडेनः, डीन कुर्याकोशः, प्रशांत पाडोले एवं किरण कुमार रेड्डी तथा च सीपीआईएम दलस्य एस वेंकटेशन इत्येते सम्मिलिताः आसन्। अध्यक्षः ओम बिरला महोदयः अवोचत् यत् ह्यः लोकसभायाः विभिन्न दलानि फ्लोर लीडर्स इति मन्त्रणायां संसदः परम्पराणां पालनेन सह सदनस्य गरिमां मर्यादां च रक्षयितुं स्वप्रतिबद्धतां पुनः प्रकटीकृतवन्तः। सदने श्री रिजिजू इत्यसः अवदत् यत् सर्वकारस्य अस्याः समस्यायाः समाधानार्थं विपक्षेण सह वार्तालापस्य सदैव सज्जः वर्तते, यदि विपक्षी सदस्याः उत्तरदायी पूर्णरीत्या चर्चां कर्तुमिच्छन्ति। श्री रिजिजू एतं प्रस्तावं तदा उपस्थापितवान् यदा कांग्रेसदलस्य मुख्यसचेतकः के सुरेश कतिपयैः सदस्यैः अनवधानेन कृतायाः अनुशासनहीनतायाः कृते खेदं प्रकटितवान्। अत्रावधेयम् इति यत् विगतमासस्य तृतीये दिनांके सदने अमर्यादित व्यवहार कारणात् अष्ट विपक्ष संसद सदस्याः आयव्ययक सत्रस्य अवशिष्ट भागाय निलम्बिताः आसन्। राष्ट्रपति पदासीना द्रौपदी मुर्मुः अद्य प्रतिपादितवती यत् सर्वकारस्य प्रधानमन्त्री पोषण शक्ति निर्माण योजनायाः अन्तर्गतं बालकेभ्यः प्रदीयमानं पौष्टिक भोजनं वस्तुतः देशस्य मानव सम्पत्तौ एकः महत्वपूर्णः निवेशः वर्तते। राष्ट्रपतिः नवदिल्ल्याम् अक्षय पात्र फाउण्डेशन इति संस्थया आयोजितम् एकं विशेष कार्यक्रमं सम्बोधयन्ती आसीत्। भारतेन गतरात्रौ काबुल नगरे उमीद एडिक्सन उपचार चिकित्सालये पाकिस्तान देशस्य वायवीयाक्रमणस्य तीव्र निन्दा कृता, यस्मिन् चतुश्शताधिकानां निर्दोषजनानां मृत्युः अभवत्। विदेश मन्त्रालयस्य प्रवक्ता रणधीर जायसवालः एकस्मिन् वक्तव्ये अवदत् यत् हिंसायाः एतत् कातरपूर्णम् अमानवीयञ्च कृत्यम् येन चिकित्सालय सदृशे स्थाने बृहत्संख्यायां सामान्य नागरिकाणां प्राणाः अपहृताः कदापि सैन्यलक्ष्यम् इति रूपेण न समर्थयितुं शक्यते। सः अग्रे अवदत् यत् पाकिस्तानः सम्प्रति एतं नरसंहारं सैन्य अभियानस्य रूपं दातुं प्रयतते इति वार्ताः।